ओम अथ एकोनविंशोऽध्यायः पार्थिवपूजनमाहात्यम् भस्मप्रकाराभिधानम् च ऋषयवोचुः सूतसूतचिरम् जीवधन्यस्त्वम् शिवभक्तिमान् सम्यगुक्तस्त्वया लिङ्गमहिमा सत्फलप्रदः यत्र पार्थिवमाहे च लिङ्गस्य महिमाधुना सर्वोत्कृष्टश्च कथितो व्यासतो ब्रूहितम् पुनः सूत उवाच शृणुध्वम् ऋषयः सर्वे सद्भक्त्या आदरतोऽखिलाः शिवपार्थिवलिङ्गस्य महिमा प्रोच्यते मया उक्ते श्वेतेषु लिङ्गेषु पार्थिवम् लिङ्गमुत्तमम् तस्य पूजनतो विप्रा बहवः सिद्धिमागताः हरिर्ब्रह्मादि ऋषयः तत्प्रजापतयस्तथा सम्पूज्य पार्थिवम् लिङ्गम् प्रापुः सर्वेऽप्सितम् द्विजाः देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः अन्येऽपि बहवस्तम् सम्पूज्य सिद्धिम् गताः पराम् कृते रत्नमयम् लिङ्गम् त्रेतायाम् हेमसम्भवम् द्वापरे पारदम् श्रेष्ठम् पार्थिवम् तु कलवयुगे अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा अनन्यपूजिता विप्रा ततस्तस्मान्महत्फलम् यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः एवम् सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठासुरापका तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथा सर्वेषु मन्त्रेषु प्रणवो हि महान् स्मृतः तथेदम् पार्थिवम् श्रेष्ठम् आराध्यम् पूज्यमेव हि यथा सर्वेषु वर्णेषु ब्राह्मणः श्रेष्ठ उच्यते तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथा पुरीषु सर्वासु काशी श्रेष्ठतमा स्मृता तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथा व्रतेषु सर्वेषु शिवरात्रिव्रतम् परम् तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते यथा देवीषु सर्वासु शैवी शक्तिः परा स्मृता तथा सर्वेषु लिङ्गेषु पार्थिवम् श्रेष्ठमुच्यते प्रकृत्य पार्थिवम् लिङ्गम् योऽन्यदैवम् प्रपूजयेत् वृथा भवति सा पूजा स्नानदानादिकम् वृथा पार्थिवाराधनम् पुण्यम् धन्यम् आयुर्विवर्धनम् तुष्टिदम् पुष्टिदम् श्रीदम् कार्यम् साधकसत्तमैः यथा लब्धोपचारी च भक्तिश्रद्धा समन्वितः पूजयेत् पार्थिवम् लिङ्गम् सर्वकामार्थसिद्धिदम् य कृत्वा पार्थिवम् लिङ्गम् पूजयेत् शुभवेदिकम् इहैव धनवान् श्रीमानन्दे रुद्रो अभिजायते त्रिसन्ध्यम् योऽर्चयेल्लिङ्गम् कृत्वा बिल्वेन पार्थिवम् दशैकादशकम् यावत् तस्य पुण्यफलम् शृणु अनेनैव स्वदेहेन रुद्रलोके महीयते पापहम् सर्वमर्त्यानाम् दर्शनास्पर्शनादपि जीवन्मुक्तः स वै ज्ञानी शिव एव न संशयः तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते शिवम् ह्यः पूजयेन्नित्यम् कृत्वा लिङ्गम् तु पार्थिवम् यावज्जीवनपर्यन्तम् सयाति शिवमन्दिरम् मृडेनाम् अप्रमितान् वर्षान् शिवलोके हि तिष्ठति सकामः पुनरागत्य राजेन्द्रो भारते भवेत् निष्कामः पूजयेन्नित्यम् पार्थिवम् लिङ्गमुत्तमम् शिवलोके सदा तिष्ठे तस्य सायुज्यमाप्नुयात् पार्थिवम् शिवलिङ्गम् च विप्रो यदि न पूजयेत् सयादि नरकम् घोरम् शूलप्रोतम् सुदारुणम् यथा कथञ्चिद्विधिना रम्यम् लिङ्गम् प्रकारयेत् पञ्चसत्रविधानम् च पार्थिवेन विचारयेत् अखण्डम् दद्धि कर्तव्यम् न विखण्डम् प्रकारयेत् विखण्डम् तु प्रकुर्वाणो नैव पूजाफलम् लभेत् रक्तजम् हेमजम् लिङ्गम् पारदम् स्फाटिकम् तथा पार्थिवम् पुष्परागोत्तम् अखण्डम् तु प्रकारयेत् अखण्डम् तु चरम् लिङ्गम् द्विखण्डम् अचरम् स्मृतम् खण्डाखण्डविचारोऽयम् सचराचरयो स्मृतः वेदिका तु महाविद्या लिङ्गम् देवो महेश्वरः अतो हि स्थावरे लिङ्गे स्मृता श्रेष्ठा द्विखण्डता द्विखण्डम् स्थावरम् लिङ्गम् कर्तव्यम् हि विधानतः अखण्डम् जङ्गमम् प्रोक्तम् शैव सिद्धान्तवेदिभिः द्विखण्डम् तु चरम् लिङ्गम् कुर्वन्त्यज्ञानमोहिताः नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः अखण्डम् स्थावरम् लिङ्गम् द्विखण्डम् चरमेव च ये कुर्वन्ति नरा मूढा न पूजा फलभागिनः तस्माच्छास्त्रोक्तविधिना अखण्डम् चरसंज्ञकम् द्विखण्डम् स्थावरम् लिङ्गम् कर्तव्यम् परया मुदा अखण्डे तु चरे पूजा सम्पूर्णफलदायिनी द्विखण्डे तु चरे पूजा महाहानिप्रदा स्मृता अखण्डे स्थावरे पूजा न कामफलदायिनी प्रत्यवायकरी नित्यम् इत्युक्तम् शास्त्रवेदिभिः इति श्रीशिवमहापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् साध्यसाधनखण्डे पार्थिवशिवलिङ्ग पूजनमाहात्यवर्णनम् नाम एकोनविंशोऽध्यायः ॐ